श्री गुरुभ्यो नमः हरिः ओम। अथातो रोगानुत्पादनीयमध्यायं व्याख्यास्यामः। इतिहस्माहुरात्रेयादयो महर्षयः। वेगान्नधारयेद्वात विन्मूत्रक्षवतृक्षुधां निद्राकाशश्रमश्वासजृम्भाश्रुच्छर्दिरेतसाम्। अधोवातस्य रोधेन गुल्मोदावर्तरुक्लमाः वातमूत्रशकृत्सङ्गदृष्ट्यग्निवदहृद्गदाः। शकृतः पिण्डिकोद्वेष्ट प्रतिश्याय शिरोरुजा। ऊर्ध्ववायुः परीकर्तो हृदयस्योपरोधनम्। मुखेन विट्प्रवृत्तिश्च पूर्वोक्ताश्चामया स्मृताः। अङ्गभङ्गाश्मरीवस्ति मेढ्रवङ्क्षणवेदनाः। मूत्रस्य रोधात् पूर्वे च प्रायो रोगाः तदौषधम्। वर्त्यभ्यङ्गावगाहश्च स्वेदनं बस्तिकर्म च। अन्नपानं च विड्भेदि विड्रोधोत्तेषु यक्ष्मसु। मूत्रजेषु तु पाने च प्राग्भक्तं शस्यते घृतम्। जीर्णान्तिकं चोत्तमया मात्रया योजनाद्वयम्। अवपीडकमेत्तच्च संज्ञितं धारणात् पुनः। उद्गारस्यारुचिकम्पो विबन्धो हृदयोरसोः। आध्मानकासहिद्माश्च हिद्मावत्तत्र भेषजम्। शिरोर्तीन्द्रियदौर्बल्यमन्यास्तम्भार्दितं क्षुतेः। तीक्ष्णधूमाञ्जनाघ्राण नावनार्कविलोकनैः। प्रवर्तयेत् क्षुतिं सक्तां स्नेहस्वेदौ च शीलयेत्। शोषाङ्गसादबाधिर्यसम्मोहभ्रमहृद्गदाः। तृष्णाया निग्रहात्तत्र शीतः सर्वो विधिर्हितः। अङ्गभङ्गारुचिग्लानिकार्श्यशूलभ्रमाक्षुदः। तत्र योज्यं लघुस्निग्धमुष्णमल्पं च भोजनम्। निद्रायामोहमूर्धाक्षिगौरवालस्य जृम्भिकाः। अङ्गमर्दश्च तत्रेष्ट स्वप्नः संवाहनानि च। कासस्य रोधात्तद्वृद्धिः श्वासारुचिहृदामयाः। शोषो हिद्मा च कार्योऽत्र कासः सुतरां विधिः। गुल्महृद्रोगसम्मोहाः श्रमश्वासद्विधारितात्। हितं विश्रमणं तत्र वातघ्नश्च क्रियाक्रमः। जृम्भायाः क्षववद्रोगाः सर्वश्चानिलजिद्विधिः। पीनसाक्षिशिरो हृद्रुङ्मन्यास्तम्भारुचिभ्रमाः। सगुल्मा बाष्पतस्तत्र स्वप्नो मद्यं प्रियाः कताः। विसर्पकोठकुष्ठाक्षिकण्डूपाण्ड्वामयाज्वराः। सकाशश्वासहृल्लासव्यङ्गश्वयथवो वमेः। गण्डूषधूमानाहाररूक्षं भुक्त्वा तदुद्वमः। व्यायामः श्रुतिरस्रस्य शस्तं चात्र विरेचनम्। सक्षारलवणं तैलमभ्यङ्गार्थं च शस्यते। शुक्रात्तत्स्रवणं गुह्यवेदनाश्वयथुज्वरः। हृद्व्यथा मूत्रसङ्गाङ्गभङ्गवृद्ध्यश्म षण्डताः। ताम्रचूडसुराशालिबस्त्यभ्यङ्गावगाहनम्। बस्तिशुद्धिकरैः सिद्धं भजेत् क्षीरं प्रिया स्त्रियः। तृक्षूलार्तं त्यजेत् क्षीणं विड्वमं वेगरोधिनम्। रोगाः सर्वेऽपि जायन्ते वेगोदीर्णधारणैः। निर्दिष्टं साधनं तत्र भूयिष्ठं येतु तान् प्रति। ततश्चानेकधा प्रायः पवनो यत्प्रकुप्यति। अन्नपानौषधं तस्य युञ्जीतातोऽनुलोमनम्। धारयेत्तु सदा वेगान् हितैषी प्रेत्य चेह च। लोभेर्ष्याद्वेषमात्सर्य रागादीनां जितेन्द्रियः। यतेत च यथा कालं मलानां शोधनं प्रति अत्यर्थ संचितास्ते हि क्रुद्धा स्युर्जीवितच्छिदः दोषाः कदाचित् कुप्यन्ति जिता लङ्घनपाचनैः ये तु संशोधनैः शुद्धा न तेषां पुनरुद्भवः यथा क्रमं यथा योगमत ऊर्ध्वं प्रयोजयेत् रसायनानि सिद्धानि वृष्ययोगांश्च कालवित् भेषजक्षपिते पथ्यमाहारैर्ब्रह्मणं क्रमात् शालिषष्टिकगोधूममुद्गमांसघृतादिभिः हृद्यदीपनभैषज्यसंयोगादृचिपक्तिदैः साभ्यङ्गोद्वर्तनस्नाननिरूहस्नेहबस्तिभिः तथा सलभते शर्म सर्वपावकपाटवम् धीवर्णेन्द्रियवैमल्यम् वृषतां दैर्घ्यमायुषः ये भूतविषवाय्वग्निक्षतभङ्गादिसम्भवाः रागद्वेषभयाद्याश्च ते स्युरागन्तवो गदाः त्यागप्रज्ञापराधानामिन्द्रियोपशमस्मृतिः देशकालात्मविज्ञानं सद्वृत्तस्यानुवर्तनम् अनुत्पत्यै समासेन विधिरेष प्रदर्शितः निजागन्तुविकाराणामुत्पन्नानां च शान्तये शीतोद्भवं दोषचयं वसन्ते विशोधयन् ग्रीष्मजमभ्रकाले घनात्यये वार्षिकमाशु सम्यक् प्राप्नोति रोगान् ऋतुजान्न जातु नित्यं हिताहारविहारसेवी समीक्षकारी विषयेष्वसक्तः दाता समः सत्यपरक्षमावानाप्तोपसेवी च भवत्यरोगः इति श्रीवैद्यपतिसिंहगुप्तसूनु वाग्भटविरचितायाम् अष्टाङ्गहृदयसंहितायाम् सूत्रस्थाने रोगानुत्पादनीयो नाम चतुर्थोऽध्यायः।